श्रीमद्भागवत महापुराणम् एकादशस्कन्धः अथ त्रयोविंशोऽध्यायः बादरायणि उवाच स एव माशंसित उद्धवेन भागवतमुखेन दाशार्हमुख्यः सभाजयन्नृत्यवचो मुकुन्दस्तमावभाषीश्रवणीयवीर्यः श्रीभगवानुवाच बार्हस्पत्यसवैनात्र साधुर्वै दुर्जनैरितैः दुरुक्तैर्भिन्नमात्मानैः समाधातुमीश्वरः न तथा तप्यते विद्धः पुमान् बाणैः सुमर्मगैः यथा तु दन्ति मर्मस्थाय सतां परुषेशवः कथयन्ति महत्पुण्यमितिहासमिवोद्धव तमः वर्णयिष्यामि निबोधसुसमाहितः केनचिद्भिक्षुणा गीतं परिभूतेन दुर्जनैः स्मरता धृतियुक्तेन विपाकं निजकर्मणाम् अवन्तिषुद्विजः कश्चि दासी दाढ्यतमश्रिया वार्तावृत्तिः कदर्यस्तु कामी लुब्धोति कोपनः ज्ञातयोतिथयस्तस्य वां मात्रेणापि नार्चिताः शून्यावसथ आत्मापि काले कामैरनर्चितः दुःशीलस्य कदर्यस्य द्रुव्यन्ते पुत्रबान्धवाः दारादुहितरो भृत्या विषण्णानाचरन् प्रियम् तस्यैव यक्षवित्तस्य च्युतस्यो भयलोकतः धर्मकामविहीनस्य चुक्रुधुः पैजभागिनः तदवध्यानविस्रस्तपुण्यस्कन्धस्य भूरिद अर्थोऽप्यगच्छन् निधनं बह्वायासपरिश्रमः ज्ञातयो जगृभुः केचित् किञ्चिद्दस्यव उद्भव दैवतः कालतः केचित् ब्रह्मबन्धोर्नृपार्थिवात् स एवं द्रविणे नष्टे धर्मकामविवर्जितः उपेक्षितश्च स्वजनैश्चिन्तामापदुरत्ययाम् तस्यैवं ध्यायतो दीर्घं नष्टरायस्तपस्विनः खिद्यतो बाष्पकण्ठस्य निर्वेदस्य सुमहानभूत् स चाहिदमहो कष्टौ गृहात्मामीनुता पितः न धर्माय न कामाय यस्यार्थायास ईदृशः प्रायीणार्थात् कदर्याणान्न सुखाय कदाचन इह चात्मोपतापाय मृतस्य नरकाय च यशो यशस्विनां शुद्धं श्लाघ्या ये गुणिनां गुणाः लोभस्वल्पोपितान् हन्ति श्वित्रो रूपमिवीप्सितम् अर्थस्य साधने सिद्धे उत्कर्षे रक्षणे व्यये नाशोपभोगायासस्त्रासश्चिन्ता भ्रमो नृणाम् स्थेयं हिंसानृतं दम्भक् कामः क्रोधस्मयो मदः भेदो वैरमविश्वासंस्पर्धा व्यसनानि च एते पैच दशानर्थायर्थमूला मता नृणाम् तस्मादनर्थमर्थाख्यं श्रेयो दूरतस्त्यजे भिद्यन्ते भ्रातरोदाराः पितरसुहृदस्तथा एका स्निग्धा काकिणिना सद्यः सर्वैरयः कृताः अर्थे दीप्तमन्यवः त्यजन्त्याशु स्पृधो घ्नन्ति सहसोत्सृज्य सौहृदम् लब्ध्वा जन्मामरप्रार्थ्यं मानुष्यं तद्विजाग्रताम् तदना ये स्वार्थं घ्नन्ति यान्त्यशुभाङ्गतिम् स्वर्गापवर्गयोर्द्वारं प्राप्य लोकमिमं पुमान् द्रविणीकोऽनुषज्जेत मर्त्यो नर्थस्य धामनि देवर्षि पितृभूतानि ज्ञातीन् बन्धूंश्च भागिनः असौ विभज्य चात्मानै यक्षवित्तः पतत्यधः व्यर्थयार्थे हया वित्तं प्रमत्तस्य वयोबलम् कुशला येन सिध्यन्ति जरठक् किन्नु साधये कस्मात् संक्लिश्यते विद्वान् व्यर्थयार्थे हयासकृत् कस्यचिन्मायया नूनल्लोकोऽयं सुविमोहितः किं धनैर्धनदैवा किं मृत्युना ग्रस्यमानस्य कर्मभिर्वोतजन्मदैः नूनं मे भगवान् स्तुष्टः सर्वदेवमयो हरिः येन नीतो दशामेतान् निर्वेदश्चात्मनः प्लवः सोऽहं कालावशेषेण शोषयिषेऽङ्गमात्मनः अप्रमत्तोऽखिल स्वार्थे यदि स्यात् सिद्धात्मनि तत्र मामनुमोदीरन् देवास्त्रिभुवनेश्वराः मुहूर्तेन ब्रह्मलोकं खट्वाङ्गसमसादयत् श्रीभगवानुवाच इत्यभिप्रीत्य मनसा यावन्त्यो द्विजसत्तमः उन्मुच्य हृदयग्रन्थीन् शान्तो भिक्षुरभून्मुनिः स च चारमयीमेतां संयतात्मेन्द्रियानिलः भिक्षार्थन्नगरग्रामानसङ्गो लक्षितो विशत् तौ वै प्रवयसं भिक्षुमवधूतमसज्जनाः दृष्ट्वा पर्यभवन् भद्र बह्वीभिः परिभूतिभिः केचित् त्रिवेणुजगृहुरे के पात्रङ्कमण्डलुम् पीठै चैकेक्षसूत्रै च कन्थाय चीराणि केचन प्रदाय च पुनस्तानि दर्शितान्याददुर्मुनेः अन्नै च भैक्षसम्पन्नं भुञ्जानस्य सरित्तटे मूत्रयन्ति च पापिष्ठाष्ठीवन्त्यस्य च मूर्धनि यतवाचौवाचयन्ति ताडयन्ति न वक्ति चेत् तर्जयन्त्यपरे वाग्भिस्तेनोऽयमिति वादिनः बध्नन्ति रज्ज्वातं केचित् बध्यतां बध्यतामिति क्षिपन्त्येकेव जानन्त एष धर्मध्वजः शठः क्षीणवित्तैमावृत्तिमग्रहीत् स्वजनोजितः अहो एष महासारो धृतिमान् गिरिराडिव मौनेन साधयत्यर्थं भगवद्दृढनिश्चयः इत्येके विहसन्त्येनमेके दुर्वातयन्ति च तं बबन्धुर्निरुरुधुर्यथा क्रीडनकं द्विजम् एवं स भौतिकं दुःखं दैविकं दैहिकैचयत् भोक्तव्यमात्मनोदिष्टं प्राप्तं प्राप्तमबुध्यत। परिभूतैमाङ्गाथामगायतनराधवैः पातयद्भिस्वधर्मस्थो धृतिमास्थाय सात्विकी। द्विज उवाच नायै जनो मे सुखदुःखहेतुर्न देवतात्मा ग्रहकर्मकालाः मनः परं कारणमामनन्ति संसारचक्रं परिवर्तयेद्यत् मनोगुणान् वै सृजते बलीयस्ततश्च कर्माणि विलक्षणानि शुक्लानि कृष्णान्यथ लोहितानि तेभ्यः सवर्णाश्रुतयो भवन्ति। अनीहात्मा मनसा समीहता हिरण्मयो मत्सकौद्विचष्टे मनस्वलिङ्गं परिगृह्य कामान् जुषन्निबद्धो गुणसङ्गतोऽसौ। दानं स्वधर्मो नियमो यमश्च श्रुतै च कर्माणि च सद्व्रतानि सर्वे मनो निग्रहलक्षणान्ताः परो हि योगो मनसः समाधिः समाहितै यस्य मनः प्रशान्तन् दानादिभिः किंवद तस्य कृत्यम् असंयतै यस्य मनो विनश्यत् दानादिभिश्चेद परं किमेभिः। मनोवशेन्येयभवन् स्म देवा मनश्च नान्यस्य वशं समेति भीष्मो हि देवः सहसस्थीयान् युज्याद्वशेतम् स हि देवदेवः। तन्दुर्जयं शत्रुमसह्य वेग मरुन्तु दन्तं न विजित्य केचित् कुर्वन्त्य सद्विग्रहमत्र मर्त्यैर्मित्राण्युदासीनरिपून्विमूढा। देहं मनो मात्रमिमं गृहीत्वा ममाहमित्यन्धधियो मनुष्याः एषोऽहमन्यो यमिति भ्रमेण दुरन्तपारे तमसि भ्रमन्ति। जनस्तु हेतुस्तुखदुःखयोश्चेत् किमात्मनश्चात्र भौमयोस्तत् जीवां क्वचित् सन्दशति स्वदद्भिस्तद्वेदनायां कतमाय कुप्येत्। दुःखस्य हेतुर्यदि देवतास्तु किमात्मनस्तत्र विकारयोस्तत् यदङ्गमङ्गेन निहन्यते क्वचित् क्रुध्येत कस्मै पुरुषस्वदेहे। आत्मा यदि स्यात् सुखदुःखहेतुक् किमन्यतस्तत्र निजस्वभावः नैयात्मनोऽन्यद्यदि तन्मृषा स्यात् क्रुध्येत कस्मान्न सुखं न दुःखम्। ग्रहानिमित्तं सुखदुःखयोश्चि किमात्मनोजस्य जनस्य ते वै ग्रहैर्ग्रहस्यैव वदन्ति पीडां क्रुद्येत कस्मै पुरुषस्ततोऽन्यः कर्मास्तु हेतुस्सुखदुःखयोश्चि किमात्मनस्तद्धि जडाजडत्वे देहस्त्वचित्पुरुषोऽयं सुपर्णः क्रुद्येत कस्मै न हि कर्ममूलम् कालस्तु हेतुस्सुखदुःखयोश्चि किमात्मनस्तत्र तदात्मकोऽसौ नाग्नेर्हितापो न हि मस्य तत्स्यात् क्रुद्येत कस्मै न परस्य द्वन्द्वम् न केनचित् क्वापि कथैचनास्य द्वन्द्वोपरागः परतः परस्य यथाहमसं श्रुतिरूपिणः स्यादेवं प्रबुद्धो न विभेति भूतैः एतां सास्थाय परात्मनिष्ठा मध्यासितां पूर्वतमैर्महर्षिभिः अहन्तरिष्यामि दुरन्तपारं तमो मुकुन्दाङ्घ्रिनिषेवयैव श्रीभगवानुवाच निर्विद्य नष्टद्रविणो गतक्लमः प्रव्रज्यगां पर्यटमान इत्थम् निराकृतो सद्भिरपि स्वधर्मादकम्पितो मुनिराह गाथाम् सुखदुःखप्रदो नान्यः पुरुषस्यात्मविभ्रमः मित्रो दासीनरिपवः संसारस्तमसकृतः तस्मात् सर्वात्मना तात निगृहाणमनो धिया मय्यावेशितया युक्त एतावान्योगसङ्ग्रहः य एतां भिक्षुणा गीतां ब्रह्मनिष्ठां समाहितः धारयै श्रावयै शृण्वन् द्वन्द्वैर्नैवाभिभूयते इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे त्रयोविंशोऽध्यायः ॐ सर्वं श्रीकृष्णार्पणमस्तु।